नमस्कारः सर्वेभ्यः. होप् यु आर् एबल् टु हियर् मै वाय्स् अण्ड् आल्सो सी द स्क्रीन्.
नमस्कारः. यस्,
so request everybody to be on mute. We will get started in a minute, just waiting for people to get joined. Okay, we'll get started for today's session. Hope you are able to see the screen and as well as hear my voice. Okay, hope this is visible. Okay, so we'll begin with the prayer. Om Sahana Vavatu सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. सो लास्ट् क्लास् वि स्टार्टेड् आफ् वित् सह सा एषा का, राइट? दीस् आर् द थिङ्ग्स् देट् वी स्टार्टेड् आफ्. सो वील् कम्प्लीट् अवर् लास्ट् क्लासस् कण्टेण्ट् एण्ड् देन् गो आन् टु द नेक्स्ट् लेसन्. एण्ड् आल्सो वी विल् सी दि होम्वर्क् टुडे. देट् इस् वाट् वी विल् डू टुडे एण्ड् देन् वी विल् गेट् आल्सो स्टार्टेड् वित् द नेक्स्ट् लेसन् आफ्टर् दिस्. So we stopped at Lake Ankani was done, Nadi was done, Gayatri was done, Lakshmihi was done, Durga was done, Bhadrakali, Parvati, Mahila, Ruddha was done, Lata, Mala, Yuvati, Mayuri, Utpitika, Suchi, Kartari, Pattika was done, Vaidya, Sikshika, Vichakri. Okay. So we'll get started from here. So we had seen for feminine gender words, the word that we have come across for feminine gender words were sa, yesha, ka. These are the three words that we had come across for feminine gender words. So these are the things that we had come across, and also we had seen words ending with a or e. These are the feminine gender words that we had come across, like Nadi, Bala, Balika, Rudha, Pattika, Lepana Pattika, right? These are the words that we had come across. So we'll revise these things first, and then we'll go on to the next lesson. So here I would request Manya Bhagini to unmute yourself, and can you please take up this, what does this mean on the current slide?
I'm having.
Manya Bhagini, you are audible.
Okay. Namaskaram. Saha kaha, saha dvichkrika.
Bhagini, this is a feminine gender word. So would we use saha or sa?
Sa ka, sa dvichkrika.
Samishinam Bhagi. Sa ka, sa dvichkrika. अग्रे अनिता भगिनी
एषा का एषा दूरवाणी
एषा का एषा दूरवाणी समीचीनं भगिनी एषा का एषा दूरवाणी दूरवाणी इत्युक्ते टेलिफोन् अग्रे राघवन् महोदय
नमस्कारं
नमस्कारं महोदय
सा का सा जगमत् दूरवाणी दूरवाणी
जगम दूरवाणी समीचीनं महोदय बट् इस् इट् सा आर् इस् इट् एषा
Asia, this is nearby, right? Asia, Jagama, Duravani.
Samichinam, Mahodaya. Asia ka, Asia, Jagama, Duravani. So for pronouns, we had seen it is Saha for faraway object, and especially for masculine gender, we had seen for faraway object, it is Saha. For nearby object, we are referring to with the Eshah, and for asking a question, what is it, what is this, who is it, who is that, so we are saying, Sah kaha, Eshah kaha. So this kind of addressing using the pronoun words for masculine gender is generally called as Pullinga or Pumlinga, Sarvanama Shabdaha, Sah, Eshah kaha. Okay, and for Napunsaka Sarvanama Shabda, Napunsaka Linga. Napunsaka Linga means neuter gender. Sarvanama, Sarvanama means pronoun. And Shabdaha means gender. Shabdaha means words, I'm sorry. Shabdaha means words. So, for neuter gender pronoun words, what is the way in which we are going to address is Tat. Is for far away, etat is for near, kim is for what or which. This is the question that we are asking. Tat, far away, etat, near, kim. Tat kim, etat kim. Right? This is the way in which we are going to use the words. And for trilinga sarvanama shabdaha, trilinga. Trilinga means feminine gender, linga means gender, tri means feminine gender. Sarvanama, sarvanama. Sarvanama means pronouns or pronoun. Shabdaha, shabdaha, shabdaha. Shabdaha is generally for singular. Shabdaha is for plural. So, sarvanama shabdaha, feminine gender words. That is what we are referring to here. Trilinga sarvanama shabdaha. So, what are the words? Sa for something that is far away. Esha, something that is near. And the question is ka, not ka, ka. So our time for pronouncing ka is little bit more when it is becoming ka. So as our mother tongue also, we have these kinds of pronunciation. So we extend the duration. So this is dheerga duration. So we are doing it for longer time. Whenever we are doing it for dheerga, dheerga means is the next step. So ka, ka. So ka is for a longer duration of pronunciation. Similarly, sa. Sa. Sa is again for longer duration of pronunciation and this is for far away object with respect to a feminine gender. Esha. Esha. Esha is for something that is nearby. We are referring to here again as a feminine word which is nearby. She or something that is referring to a word which is feminine in nature. So, Esha. And the question is ka. So, So how are we going to pronounce it? Sa ka, esha ka. So esha ka, sa ka. These are the two ways in which we are going to ask what is it, what is it with respect to feminine gender. So similarly, we have seen this, that how do we identify words? So we'll be coming across these things again and again. So I'm not going to break this word for now. As we go forward, we'll keep on revising this. So for now, Vrukshaha, if we want to identify the word with respect to the gender and with respect to the ending, then we would say it as Akarantaha Pumlingaha Vruksha Shabdaha. Vruksha. We are not going to use Vrukshaha. We are only going to say Vruksha Shabdaha. So Akarantaha Pumlingaha Vruksha Shabdaha. That is what Akaranta Pumlinga Shabdaha means, something that is ending with A. And what is the word? Here the word is Vruksha. Similarly, for identifying neuter gender words, we have come across a word called as Pustakam. And how are we going to identify the ending of the word and what is its gender? So we would say it as Akarantaha Napunsakalingaha Pustak Shabdaha. Pustak Shabdaha. So that is how we are going to refer as Pustakam. And similarly for Strilinga Shabdaha, we have something called as Bala. And what is it ending with? A. So it is ending with A, the longer duration. So Akarantaha, not Akarantaha, Akarantaha Strilingaha Bala Shabdaha. Akarantaha Strilingaha Bala Shabdaha. That is how we are going to identify. Next we have Ikarantaha. Ikarantaha, we have Nadi. So Ikarantaha Strilingaha Nadi Shabdaha. This is how we are going to identify Nadi. Nadi is basically a Ikaranta because the ending is E, right? So it is Ikarantaha Strilingaha Nadi Shabdaha. So Nadi. So we are pronouncing the E after the for a longer time. Nadi. Nadi Shabdaha. Okay. So we are now getting into the words that can be represented in a kitchen. So what is a kitchen? So kitchen is Pakashala. Pakashala. So Pakashala means kitchen. And Pakashala Sambandhini Vastuni. Now it is a big word now. We will try to break it into smaller chunks and then try to understand each of this. First thing is kitchen. What is kitchen? Pakashala. So Pakashala means kitchen. We got it. Sambandhini. Sambandhini means something related to kitchen. Sambandhini, related to. So kitchen related. Pakashala Sambandhini. That is what is kitchen related. And the things, Vastuni. Vastuni is actually, Vastuni is basically things. So Pakashala Sambandhini things is kitchen related things. We will try to identify the various items with respect to that would be available in kitchen in a house or a home. So what is the way to address this? So because this is near, we will say Esha Pakashala. Esha ka, Esha Pakashala. Esha Pakashala. So this is the kitchen. She is the kitchen. So if you say Esha, Esha is generally for feminine. So we are saying she is kitchen. Why are we saying she is kitchen? Because the word Pakashala, here the word is feminine. Pakashala is a feminine word. Trilinga, Akaranta Trilinga Pakashala Shabdaha. That is why we are referring to as Esha. Esha Pakashala. Esha ka, Esha Pakashala. So what is the first item that we are going to learn here? So Murugan Mahodeya, so please try to pronounce or try to address these words that are available here.
Namaskara Mahodeya.
Namaskara Mahodeya. So first word Mahodeya, what is the first word? Esha ka.
Esha Shulika.
Samitinam. Esha Shulika. Shulika is
Shulika. soon.
Shulika, Mohdaya, Shulika.
Shulika, knife, knife.
Fork, Mohdaya, fork.
Fork, okay, okay.
Samichana, Mohdaya. Second word, Mohdaya. Esha kaha, esha kaha.
Yeah, esha kaha, samasha kaha.
एषः चमसः चमसः इत्युक्ते
स्पून्
समीचीनं थर्ड् वन् महोदय एषा का
एषा छुरिका
एषा छुरिका छुरि छुरिका इत्युक्ते
छुरिका इट्स् नैफ् ऐ फील् नैफ् नैफ्
समीचीनं महोदय छुरिका इत्युक्ते नैफ् छुरिका मीन्स् नैफ् फोर्थ् वन् एषा का
एषा स्थालिका
समीचीनं महोदय बहु समीचीनम् एषा का एषा स्थालिका स्थालिका इत्युक्ते
प्लेट्
प्लेट् अथवा सासर् समीचीनं महोदय बहु समीचीनम्
ओके
धन्यवादः
धन्यवादः धन्यवादः
अग्रे सुचित्रा भगिनी आर् यु अवैलबल् सुचित्रा भगिनी
नमस्कार
नमस्कारः सुचित्रा भगिनी सो केन् यु टेक् अप् द फस्ट् वन् सः कः एषः कः
सः कः सः चम्मच च
चषकः 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 इत्युक्ते
ग्लास्
समीचीनं भगिनि सेकेण्ड् वन्
एषा आधानिका
समीचीनं बहु समीचीनं भगिनि आधानिका इत्युक्ते
ट्रे
समीचीनम् एषा का
एषा का एषः चषधानी
चषकधानी
चषकधानी
समीचीनं चषकधानी इत्युक्ते
कप् अण्ड् सासर्
समीचीनं सासर् एस्पेशलि बिका धानी इस् द अण्डर्लैङ्ग् थिङ्ग्
सो बेस् धानी
बेस् समीचीनं
धानी
चषकधानी समीचीनं भगिनि एषा का द फोर्थ् वन् एषा का
एषः का एषः बेलनी
वेल्लनि वेल्लनि
वेल्लनि
वेल्लनि
वेल्लनि
वेल्लनि वेल्लनि इत्युक्ते
रोलिङ्ग् पेन् पिन्
समीचीनं भगिनि बहु समीचीनं रोलिङ्ग् पेन् डफ् रोलर् बहु समीचीनं धन्यवादः भगिनि
धन्यवादः
अग्रे बालसुब्रह्मण्यं महोदय
महोदय
नमस्कारः महोदय
नमस्कारः महोदय एषः कः एषः घटकः
घटः घटः इत्युक्ते
घटकः पाट्
समीचीनं महोदय सेकेण्ड् वन् एषः कः
एषः कः एषः कटकः
कटाहः
कटाकः
कटाहः
अतः कटाकः
समीचीनं कटः इत्युक्ते
फिल्टर् फिल्टर् अस्ति
कटः इत्युक्ते फिल्टर् आर् ए पेन् कटाः समीचीनं
एषः कः एषः मन्तानः मन्तानः बटर्फ्लै एषः कः एषः दार्वल् दर्वल् एषः
This is no. Ikarantaha.
Oh.
एषा का एषा दर्वी
एषा का एषा दर्वी
समीचीनं नेक्स्ट् वन् महोदय
एषा का एषा का एषा मिश्रकम्
वाट् इस् द एण्डिङ्ग् लेटर् महोदय फार् मिश्रकम्
अकारान्त
अम् इट् इस् अम् एण्ड् इट् इस् अकारान्त नपुंसकलिङ्गशब्दः
देट् मीन्स्
एषा एषः एतत्
एतत् एतत् मिश्रकम्
वाट् इस् द क्वशन् एतत् किम्
एतत् किम् एतत् किम् एतत् मिश्रकम्
समीचीनं मिश्रकम् इत्युक्ते
मिक्सर्
समीचीनम् अग्रे द लास्ट् वन् महोदय
एतत् किम् एतत् पेषकम्
समीचीनं महोदय एतत् किम् एतत् पेषकं पेषकम् इत्युक्ते
पेषकं ग्रैण्डर्
समीचीनं महोदय बहु समीचीनं धन्यवादः महोदय
धन्यवादः धन्यवादः
अग्रे निष्ठा भगिनी आर् यु अवैलबल् निष्ठा भगिनी
एष एषः कः एषः अनिला ऐ काण्ट् प्रोनौन्स् इट्
ओके एषा का एषा अनिलचुल्लिः
अनिलचुल्लिः चुल्लिः
अनि समीचीनम् अनिलचुल्लिः चुल्लिः इत्युक्ते
गेस् स्टोव्
यस् चुल्लि बर्नर् आर् दि गेस् स्टोव् समीचीनं महोदय भगिनि वाट् इस् द सेकेण्ड् वन् भगिनि How are you going to
understand? एषः कः एषः बाष्पः
बाष्पः बाष्पः
बाष्पः स्टीम्
समीचीनं बाष्पः इत्युक्ते स्टीम् अग्रे दिस् वन्
एष द्रोणी
एषः आर् एषा भगिनि समीचीनम् एषा का एषा का एषा द्रोणी नो डाट् विसर्ग इस् नाट् देर् विसर्ग इस् नाट् देर् एषा का
एषा का एषा द्रोणी ओके नेक्स्ट् एतत् एतत् किम् एतत् इन्द्रनम्
इन्धनम् इन्धनम्
इन्धनम् इन्धनम् ओके एतत् किम् एतत्
इन्धनम् इत्युक्ते एकनिमिषं भगिनि एतत् इन्धनम् इत्युक्ते समीचीनं भगिनि फ्यूल् फ्यूल् जस्ट् द गेस् आर् द फ्यूल्
अग्रे okay next one is etat kim etat patram
samichanam bhagini etat kim etat patram patram ityukte
is a pot
patram okay general is a vessel
so oh, vessel
patram ityukte vessel patram general is ityukte vessel अग्रे भगिनि अग्रे नेक्स्ट्
ओके नेक्स्ट् वन् इस् एषः कः एषः कः एषः विद्युचुल्लिः
विद्युच्चुल्लिः
विद्युच्चुल्लिः
समीचीनं विद्युच्चुल्लिः समीचीनं बहु समीचीनं भगिनि धन्यवादः भगिनि अग्रे कुङ्कुं भगिनी अस्ति वा?
नमस्कारं
नमस्कारं कुङ्कुं भगिनी. सो केन् यु प्लीस् टेक् अप् दिस् स्लैड्?
यस्. सः कः? सः कूपी.
भगिनी, कूपी इस् एण्डिङ्ग् वित् ईकारान्त.
ईकारान्त स्त्रीलिङ्ग्.
करेक्ट् भगिनि, करेक्ट्.
Then saha kaha?
It would be saha or sa or
okay.
Sat.
Oh, I see. Okay. Tat.
Etat.
Sorry, etat. No. Etat kim?
No, Bagni, no. Etat would be for napunsakalingam. This is strilingam. So this would be either esha or sa. This is a strilingam word.
Yes.
This is a feminine gender word. So this would be sa or esha.
So sah kaha?
No, Bhagini. Sa ka. Sa ka.
It's the far one. Okay. Esha ka. Esha kupi.
Samichinam, Bhagini. Esha ka. Esha kupi. Kupi ityukte?
Bottle.
Yes, correct. Next one, Bhagini.
Esha ka. Esha skit vartika.
Skit vartika.
Skit vartika.
Skit vartika. Skit vartika ityukte?
Candle.
समीचीनं, बहु समीचीनम्. अग्रे.
ओके. सः कः? सः अग्निः.
समीचीनं. सः कः? सः अग्निः. अग्निः.
अग्निः.
समीचीनम्. अग्निः इत्युक्ते
फायर्.
समीचीनम्. अग्रे.
एषः कः? एषः
अगेन् भगिनि, दिस् इस् ईकारान्त. सो वुड् इट् बि एषः आर् एषा आर् एतत्? नो प्राब्लम् भगिनि. वुड् इट् बि एषा आर् एषः आर् एतत्?
एतत्. एतत् किं?
न न न, एतत् no bagni. Etat is for napunsakalingam, so this is strilingam. Feminine gender esha or sa.
So eshah kah?
Na
bagni. Eshah jalkupi.
Na bagni. Eshah is for masculine. Esha ka? Esha jalkupi.
Okay. एषा का? एषा जलकूपी.
समीचीनं. जलकूपी इत्युक्ते
बाटल्?
वाटर् बाटल्.
वाटर् बाटल्. जल वाटर्. सः कः? सः परशुः.
समीचीनं भगिनि. सः कः? सः परशुः. परशुः इत्युक्ते
I don't know how to describe this. X?
Samichinam, Bhagini. Bahu samichinam. Agre?
Okay, that's... Esha ka? Esha kashtam?
Kashtam.
Kashtam.
So... would it be esha or would it be
etat?
Samichinam. Etat.
Etat kim? Etat kashtam.
Samichinam. Bahu samichinam. Etat kashtam. Kashtam ityukte
wood.
समीचीनं वुड् फार् दि फायर् समीचीनं भगिनि, बहु समीचीनं, धन्यवादः. अग्रे डाक्टर् तङ्गं भगिनी, आर् यु अवैलबल्?
नमस्कारः महोदय.
नमस्कारः भगिनि.
मञ्जुषा इत्युक्ते बास्केट्.
समीचीनं. अग्रे भगिनि.
एषः कः? एषः धूमः, स्मोक्.
समीचीनम्. एषः कः? एषः धूमः, स्मोक्. समीचीनम्. अग्रे.
एतत् किम्? एतत् काष्ठम्.
काष्ठं,
काष्ठं, काष्ठम् इत्युक्ते फायर्वुड्.
बहु समीचीनम्, धन्यवादः.
धन्यवादः, धन्यवादः.
अग्रे इन्द्रा भगिनी, आर् यु अवैलबल्?
यस्
भगिनी, केन् यु प्लीस् टेक् अप् दिस् स्लैड्?
एषा का? एषा बाष्पस्थाली.
समीचीनं. बाष्पस्थाली इत्युक्ते?
बाष्पस्थाली इस् प्रेशर् कुकर्.
समीचीनं.
एषा का? एषा चुटी,
सुचुटी,
सुचुटी. ऐ डोण्ट् नो हौ टु काल् इट् इन् इङ्ग्लिश्.
I too don't know, Bhagini, so I am thinking this is a holder
in Tamil, so I don't know.
Okay, Bhagini. So fine. So chuti. Okay. So this is the holder that you use for hot vessels.
Tong. You could say, I don't know.
Tong. Probably tong. Yeah.
Okay, then.
Agre, Bhagini.
Esha ka? Esha agni petika match box.
समीचीनम्. अग्निपेटिका, अग्नि इत्युक्ते फायर्, पेटिका इत्युक्ते बाक्स्. सो दिस् वुड् बि अ मेच् बाक्स्. समीचीनम्. अग्निपेटिका,
अग्निपेटिका. एषा का चूली? एषा, एषा कः? एषः
का? फस्ट् वर्ड् इस् का भगिनि, फस्ट् वर्ड् इस्
चूली, देन्
आपकः.
एषा का? का एषा चुल्ली?
चुल्ली. समीचीनम्.
चुल्ली इस् स्टोव्.
करेक्ट्.
एषा का? एषा आपकाः. एषः कः? एषः कः? एषः आपकाः. आपकः इस् अवन्.
समीचीनं, बहु समीचीनं भगिनि. समीचीनं, समीचीनम्. अग्रे भगिनि.
एषा का? एषा शोधनी. शोधनी इस् अ फिल्टर्.
समीचीनं, बहु समीचीनम्. एषा का? एषा शोधनी.
एषा का? एषा अग्निशालका.
अग्निशालका,
शलाका, अग्निशलाका, मेच् स्टिक्.
बहु समीचीनं भगिनि, धन्यवादः इन्द्रा भगिनि.
धन्यवादः.
समीचीनं. सो सो फार् वी हेड् सीन् पाकशालासम्बन्धीनि वस्तूनि. आल् देट् वी हव् सीन् सो फार् इस् द बिलाङ्गिङ्ग्स् आर् द थिङ्ग्स् देट् वी फैण्ड् इन् द किचन्. पाकशाला, पाकशाला इत्युक्ते किचन्. सम्बन्धीनि, सम्बन्धीनि रिलेटेड् वस्तूनि, वस्तूनि इत्युक्ते थिङ्ग्स्. पाकशालासम्बन्धीनि वस्तूनि, आल् देट् वी हव् सीन् सोफा आर् द ऐटम्स् आर् द थिङ्ग्स् देट् वि फैण्ड् इन् द किचन्. देट् इस् वाट् वी हव् सीन् सोफार्. द नेक्स्ट् वन् देट् वि आर् सीङ्ग् हियर् ईस् द लिविङ्ग् रूम् आर् द मेन् रूम्. सो हौ डु वि प्रोनौन्स् दिस् इन् संस्कृत्? मुख्यप्रकोष्ठः, क्षमतां, मुख्यप्रकोष्ठः मुख्य इत्युक्ते मेन् प्रकोष्ठः प्रकोष्ठः इत्युक्ते रूम् मुख्यप्रकोष्ठः मेन् रूम् सो वि विल् सी वन् बै वन् वाट् इट् मीन्स् सो रञ्जना भगिनी आर् यु अवेलेबल् रञ्जना भगिनी आर् यु देर् ओके रञ्जना भगिनी फैन् प्रियराम भगिनी आर् यु अवेलेबल्
नमस्कारः
नमस्कार भगिनि सो वि विल् स्टार्ट् वित् द लेफ्ट् हेण्ड् सैड् सो हियर् इट् हेस् बीन् सेड् दट् भित्तिः इस् आलरेडि गिवेन् टु अस् एस् सा भित्तिः केन् यु स्टार्ट् वित् द भित्तिः इस् नथिङ्ग् बट् अवर् वाल् भित्तिः सा का सा भित्तिः केन् यु स्टार्ट् वित् द सेकेण्ड् वन् एतत् किम् एतत् मुद्रणयन्त्रम् समीचीनं मुद्रणयन्त्रं सो रेकार्डर् मुद्रणयन्त्रम् इत्युक्ते रेकार्डर् अग्रे भगिनि
एषः कः एषः तापानुकूलकः
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 समीचीनम् एषः कः एषः तापानुकूलकः तापानुकूलक इत्युक्ते
शेल्फ्
ओके गेस् नैस् गेस् भगिनि अथवा एनी अदर् गेस् सोरि तापानुकूलकः
स्क्रीन्
यस् नैस् गेस् एनी अदर् थिङ्ग् महोदय एर् कण्डिशनर् समीचीनम् एर् कण्डिशन् इस् वुड् बि द अप्रोप्रियेट् वर्ड् तापानुकूलकः मीन्स् अनुकूलकः तापानं मीन्स् द टेम्परेचर् इट् इस् अड्जस्टिङ्ग् इट् सेल्फ् तापानुकूलकः इस् बेसिकलि अन् एर् कण्डिशनर् तापानुकूलकः समीचीनं भगिनि अग्रे प्रिया भगिनि
एतत् किम् एतत् वातायनं
वातायनं समीचीनं वातायनम् इत्युक्ते
विण्डो
समीचीनम् अग्रे
सा उत्पीठिका
समीचीनं बहु समीचीनं सा का सा उत्पीठिका उत्पीठिका इत्युक्ते
टेबल्
समीचीनं समीचीनं टेबल् समीचीनं अग्रे
एषः कः एषः कटः
बहु समीचीनम् एषः कः एषः कटः कटः इत्युक्ते करेक्ट् समीचीनं भगिनि बहु समीचीनम् अग्रे
तत् किं तत् दूरदर्शनं
दूरदर्शनं दूरदर्शनम् इत्युक्ते
टेलिविजन्
समीचीनं दूरदर्शनम् इत्युक्ते टेलिविजन् बहु समीचीनम् अग्रे
एषः कः एषः विद्युद्दीपः
बहु समीचीनम् एषः कः एषः विद्युद्दीपः विद्युद्दीपः इत्युक्ते
एलेक्ट्रिक् लैट् बोर्ड्
समीचीनम् एलेक्ट्रिक् लैट् बोर्ड् एलेक्ट्रिक् बल्ब् आर् अ लैट् लेम्प् यस् करेक्ट् भगिनि अग्रे
तत् किं तत् चलनचित्रं
तत् किं तत् चलनचित्रं समीचीनं चलनचित्रम् इत्युक्ते
स्क्रीन्
मूवि चलनचित्रम् इत्युक्ते मूवि समीचीनम् अग्रे
एषा सञ्चिका.
समीचीनम्. एषा का? एषा सञ्चिका. सञ्चिका इत्युक्ते
not sure. Shelf?
File? Sanchika itukte file.
Okay.
Samitya. Agre Bhagini?
Etat kim, etat pustakam.
Samichinam. Etat kim, etat pustakam. Pustakam itukte?
Book.
Samichinam. Pustakam itukte book. Samichinam. Agre?
एतत् किम् एतत् द्वारम्.
एतत् किम् एतत् द्वारम्. द्वारम् इत्युक्ते
डोर्.
समीचीनं. द्वारम् इत्युक्ते डोर्. अग्रे
एषा का? एषा निधानिका.
एषा का? एषा निधानिका. निधानिका इत्युक्ते निधानिका. समीचीनं. शेल्फ. समीचीनम्. अग्रे भगिनि
एषः कः? एषः आसन्दः.
एषः कः? एषः आसन्दः. आसन्दः इत्युक्ते
चेर्.
यस्, चेर्, रेस्टिङ्ग् चेर्. आसन्दः इत्युक्ते चेर्. समीचीनम्. अग्रे
तत् किं? तत् उपादानम्.
समीचीनं. तत् किं? तत् उपादानं. बहु समीचीनम्. उपादानम् इत्युक्ते
सर्, एक्स्क्यूस् मी सर्, फार् वाल् इट् इस् एण्डिङ्ग् वित् कः, बट् वि आर् अड्रेसिङ्ग् इट् एस् like sa, it should be saha, no?
Correct, Bhagini. Very rightly pointed out. Bhittihi, as you see, here it is coming with aha. Very rightly pointed out. But as we were discussing, there is another word that we came across similar to it. Lakshmihi, right? Lakshmihi also, we came across the same thing. So there are exceptions to the generic rules that we have in Sanskrit, that something that is ending with e is generally a three-linga word. But here we have e and also aha, but we are referring to the word here as three-linga. But with our understanding, anything that comes up with aha, we are referring to as a masculine word or a humlinga word. That is what we discussed. But Bittihi is one word, or Lakshmihi, or these kind of words are essentially three-linga words. And that is why even here we have, the slide mentions here it is Sa. Okay, that is the reason why we are seeing that as categorized as three-linga words. And Vidyut is essentially electric. Astu Bhagini.
Dhanyavada.
Samichinam. Okay, so those are the reasons why we'll, for to better understanding of these things will become very clear once we know the grammar or the rules on which how the words have evolved. We have a root word. From the root word, the words have evolved. So for that, we would have to get into the details, which are very advanced classes. Once we complete this, then you can go to the advanced art. Whenever you feel like trying to understand what is, especially with respect to grammar, in those classes, these rules are covered. Okay. So this is the another song that is available. So I request you to go through this song. It is available on YouTube. Here is the link. So you please go through this link and try to understand the song. Because this song is totally on the consonants of the Sanskrit words. So consonants of the Sanskrit, letters, Sanskrit consonant on the Sanskrit letters are a Vyanjanani. That is how the song has been constructed. So this would be helpful for understanding that. So a beautiful song. So please go through whenever you are free or find time. So next thing is, we have covered this. What we'll do immediately now is we'll try to do our homework. I'll try to see how we are going to homework here. So first thing here is, Sarada Bhagni, are you available? So we'll start doing this and try to understand what are the words here. Sarada Bhagni, Sarada Ramakrishnan Bhagni, are you available? Okay, looks like Sarada Bhagni is not responding. Anandam Mahodaya, are you available?
Hello.
Sarada Bhagni, are you available?
I'm available. I'm just new to the class. Can I answer this the next week? So that let me get used to the...
No problem, Bhagni. Hello. Sure.
Namaskar.
Okay, Bhagni. So, we'll take up the next thing. So, Ananda Mahodaya, are you available? Ananda Mahodaya? Okay, Anand Mahodaya seems is not responding. Okay, Aishwarya Bhagni, are you available, Aishwarya Bhagni? Aishwarya Bhagni? Bhagni, you are unmuted, but your voice is not audible. Aishwarya Bhagni, your voice is not audible. Okay. Vandana Garg Bhagni, are you available?
Namaskaram.
Namaskara Bhagni. So, did you get a chance to look at the homework?
Yeah.
Okay, Bhagni. So, can you cover the first five sentences from Balakaha to Nalini?
Yes.
Identify.
Yes, yes.
Yes. Sure, Bhagni.
Yes. So, Balaka is Akarantak Purling. So, it will be Sahakaha.
Sahakaha. Akarantak Purling. Samichinam Bhagni. Or Yeshaha Kaha.
Ha. Yeshaha Kaha or Sahakaha. And Balika is a... Ha. Balika is a Akarantak Striling.
Akarantak Striling.
Akarantak Striling. So it will be Saka, or if it is nearby, it will be Esha Ka. Esha Balika. Sa Balika. So third is Pustakam. Pustakam is Napusilingam.
Samichinam.
So it will be, if it is far, it is Tat Kim. And then it can be Tat Pustakam. And when it is near, it will be Etat Kim. It will be Etat Pustakam.
Samichinam Bhagini. Agre.
And fourth is Sita. Sita is again Akaratmak Striling. So Akarantam, if it is far. Striling. So it is Sa Ka, Sa Sita. If it is near, Esha Ka, Esha Sita.
Bahu Samichinam Bhagini, agree.
Fifth is Nalani. Nanali is also Akarantak Nalini. It is also Akarantak Strilinga.
No, no. It is Ikarantak Strilinga.
Ikaha. Ikarantak because it's got a Iki Matra. So it is Ikarantak Strilinga. So it is again, if it is far, it's Sa Ka. And then Sa Nalini. And it is Nalini. Far, then Esha. If it is far, it is Esha Ka. And it will be Esha Nalini.
Bhagini, if it is near, it is Esha Ka. If it is far, it
sorry.
Is Sa Ka.
Yes. Sorry. Esha Ka, Esha Nalini. And it is when it is far, it is Sa Ka.
बहु समीचीनं भगिनि धन्यवादः
धन्यवादः
अग्रे श्रीकृष्णमहोदय आर् यु अवेलेबल्
हरि ओं महोदय
हरि ओं महोदय नमस्कारः महोदय फ्रम् 6th to 10th केन् यु प्लीस् cover this
vṛddhaḥ vṛddhaḥ pullingaḥ vṛddhaḥ saha vṛddhaḥ saha kaḥ saha vṛddhaḥ eṣaḥ kaḥ eṣaḥ vṛddhaḥ
samīcinam bhavana and what is it ending with it is ending with
ākārantak pulling
समीचीनम् अकारान्तः पुल्लिङ्गशब्दः समीचीनं नेक्स्ट् वन्
वृद्ध आकारान्त पुल्लिङ्ग्
समीचीनं बहु समीचीनं
सा वृद्धा सा का सा वृद्धा एषा का एषा वृद्धा
समीचीनं महोदय अग्रे
छत्रं छत्रं नपुंसकलिकं तत् किं तत् आकारान्त नपुंसकलिङ्ग्
समीचीनं
एतत् किम् एतत् छत्रं
समीचीनम्
आरक्षकः आरक्षकः अकारान्त पुल्लिङ्ग् सः कः सः आरक्षकः एषः कः एषः आरक्षकः
बहु समीचीनम् अग्रे
पुष्पं पुष्पं नपुंसकलिङ्गः तत् तत् किं तत् पुष्पम्
अन्तः अक्षरः किं पुष्पं 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 अन्तः अन्तः अकारान्तः नपुंसकलिङ्ग्
अकारान्त नपुंसकलिङ्ग् तत् किं तत् पुष्पम् एतत् किम् एतत् पुष्पम्
समीचीनं महोदय बहु समीचीनं धन्यवादः
धन्यवादः
अग्रे स्वर्णलक्ष्मीभगिनी
नमस्कारः महोदय
भगिनी नमस्कारः महोदय भगिनी केन् यु डू इट् फार् 11th to 15th from
durvani
droni
durvani is a ikara strilingah saka sa durvani esha ka esha durvani purusham
samitinam agre
so purushah so pumslingah sakah sa purushah एषः कः एषः पुरुषकः महिला
अकारान्त पुंलिङ्ग
अकारान्त पुंलिङ्ग अकारान्त पुंलिङ्गशब्दः सो सा का सा महिला एषा का एषा महिला
आकारान्त भगिनि आकारान्त स्त्रीलिङ्ग
आकार सा का सा महिला एषा का एषा महिला
महिला
गृहं
महिला
महिला नेक्स्ट् वन् इस् गृहं सो इट् इस् नम् न्यूटर् जेण्डर् नपुंसकलिङ्ग सो तत् किं तत् गृहम् एतत् किम् एतत् गृहं
समीचीनं
नेक्स्ट् वन् द्रोणी सो इट्स् ईकान्त स्त्रीलिङ्गः ईकारान्त स्त्रीलिङ्ग सा का सा द्रोणी एषा का एषा द्रोणी
समीचीनं भगिनि बहु समीचीनम् बहु समीचीनं भगिनि धन्यवादः अग्रे रवीन्द्रमहोदय आर् यु अवेलेबल् महोदय रवीन्द्रमहोदय रवीन्द्रमहोदय okay rabindra mahodaya looks like is not there okay agre madhavi bhagini are you available
yes namaskaram mahodaya
namaskara bhagini so please continue from phalam till pushpam phalam till pushpam
I will try yeah phalam is napunsaka lingam because it's ending with nu एतत् फलम् एतत् किम् एतत् फलं तत् किं तत् फलम्
समीचीनं भगिनि अग्रे
आसन्दः इट्स् अकारान्तक पुल्लिङ्ग सो सः कः सः आसन्दः एषः कः एषः आसन्दः
बहु समीचीनम् अग्रे भगिनि
माला इट्स् आकारान्तक स्त्रीलिङ्ग
समीचीनं माला इत्युक्ते
सा माला सारि
वाट् डस् माला मीन्
माला इस् अ गार्लेण्ड् ओर्
समीचीनं भगिनि समीचीनं माला मीन् गार्लेण्ड्
सा माला सा का सा माला एषा का एषा माला
समीचीनं भगिनि बहु समीचीनम् अग्रे
कूपी कूपी इस् अ बाटल्
समीचीनं समीचीनं भगिनि करेक्ट् इट् इस् बाटल्
इट्स् ईकारान्तक स्त्रीलिङ्ग
समीचीनं
सा का सा कूपी एषा का एषा कूपी
समीचीनम् अग्रे
पुष्पम् इट्स् नपुंसक लिङ्गं सो तत् किं तत् पुष्पम् एतत् किम् एतत् पुष्पम्
बहु समीचीनं पुष्पम् इत्युक्ते
फ्लवर्
समीचीनं भगिनि धन्यवादः भगिनि बहु समीचीनं
धन्यवादः महोदय
अग्रे करुणा भगिनी आर् यु अवेलेबल् करुणा भगिनी सो लास्ट् सिक्स् लेटर्स् केन् यु डू फ्रम् वृक्षः टु स्थालिका
वृक्षः पुरुषलिङ्ग सः वृक्षः सः कः सः वृक्षः एषः एषः वृक्षः
समीचीनम् अग्रे
पेटिका पेटिका आकारान्त
आकारान्त स्त्रीलिङ्ग
स्त्रीलिङ्ग सा का सा पेटिका एषा एषा का एषा पेटिका
पेटिका इत्युक्ते
पेटिका इस् डेस्क्
पेटिका इत्युक्ते बाक्स् और् सूट्केस्
युवती युवती इकारान्त श्रीलिङ्गः
समीचीनं.
सा का सा युवती. एषा का एषा युवती.
समीचीनम्. अग्रे
युतकम्
युतकम्
युतकम् युतकम् युतकम् युतकम् नपुंसकलिङ्गम्. एतत् किम् तत् किं सोरि तत् किं तत् युतकम् एतत् एतत् युतकम्
समीचीनं. युतकम् इत्युक्ते
सः कः सः स्यूतः. एषः कः एषः स्यूतः.
Okay, so this is akaranta pumlinga shabda.
Srilinga. Oh, sorry, pumlinga. Akaranta. Stalika.
Correct, boy. Agree?
Stalika is sa ka sa ka. Esha ka esha stalika.
समीचीनं भगिनि. सो दिस् इस् आकारान्त स्त्रीलिङ्गशब्दः. बहु समीचीनं भगिनि. करुणा भगिनि धन्यवादः.
धन्यवादः.
सो दिस् इस् अवर् होम्वर्क् देट् वास् शेर्ड् लास्ट् वीक्. अपार्ट् फ्रम् दिस् वि आल्सो शेर्ड् यू वन् शीट् इन् द ईमेल् टु फैण्ड् औट् द मीनिङ्ग्स् आफ् द वर्ड्स्. We had given you words like Usha, Priya, Vasumati, Aparna, Vidya, Padma, Jyoti, Kavita, Madhuri, Chitra, Samhita, Neha, Annapurna, Pranavi, Mayukha, Pratibha, Bhavya, Meena, Anita, Sudha, then Shilpa, Veda, Indira, Rekha and Lata. So, please try to find out the meanings of these words. So please refer to this particular page that has been shared with you. This is where you will find the recordings and also the slides links and also the homework link. So the homework link is given here. So please try to see this. We will try to do this in the next class. So that is something that please try to address this in the next class. We will try to do this in the next class. This is already updated in the homework document. So if you click on this link, you will be redirected to this particular page here. So this is where you will find out the homework for that respective session. So for 26-7-2020, which is our last week's class, we have provided you with the homework of what needs to be done. So this is what we have done just now, is this particular link which is provided here. So this particular link is what we have covered just now. So this is something we have completed. Similarly, please try to find the meanings of these feminine names. So spokensanskrit.org, this has been shared with you on the email. So try to go through that link and try to find out the words or the meanings of these words. We will try to do this in the next class. We will try to find out the meanings of these 26 words that have been mentioned, which are essentially feminine names. These are generally feminine names. We'll try to do this in the next class. We'll try to understand the meanings of these words. So what we'll do now is we'll go on with the next lesson, which is the fourth lesson. So this is, we will start doing with the first proverb that comes here. It says, Sa vidyaya vimuktaye. So what does it mean? It is only knowledge, or it is knowledge that will liberate the soul, or that will liberate us. That is what it means. Sa vidyaya vimuktaye. And this has been taken from the Upanishad. Sa vidya. So it is vidya. Now please notice the word here. We are saying sa vidya. Sa because we are referring to Vidya as the feminine. We are referring to Vidya as the feminine here. Hence, we are saying, Sa Vidya Ya Vimuktaye. It is Vidya that can liberate us. It is the knowledge that can liberate us. That is what it means. So, this is again the song or the Geetam that we had come across in the first class. Surasa Subhoda Vignya Manognya. So my singing of the song is not really good because I don't sing it in the rhythm. It might look odd. So I would request you to go through the recording that is provided here, which is given as Dhvani Mudranam, audio recording, or the link. Parisandhi is the hyperlink that is available here. The song is sung very nicely at this link. Please go through this. We are describing what exactly Sanskrit is. That is what this song is all about. It says that Sanskrit is neither difficult nor really hard to learn. That is what it is, Sanskrit. And the beauty of the language is what is given, written in this song. It says that it is very easy. It is containing a lot of knowledge. It has been written by Valmiki and it has been written by Vyasa. It has been narrated by Vyasa and written by Ganesha when it comes to Mahabharata. And also Bhagavad Gita that has been written in Sanskrit. And what does it mean? All the Amrutam or the sacred lines are part of all these lines that are there in Sanskrit in the Gita. It is not at all difficult, nor it is difficult to learn. That is what it means. Nacha kathina naiva klishta. That is what it means. And we are focusing, or the focus of this song is completely on how Sanskrit is built and what it means. So whenever you find time, please try to go through this song as well. So as part of this lesson also, we will try to revise this again. So what we have done earlier is we have started with how are we going to address the names, right? So we are going to ask names and then get the response back, or we are going to tell our names and then ask the question. So how are we going to do this? So parichaya means introduction. This is where we started. Mama Nama Jayantaha. Mama Nama is what we are going to say. My name is Mama Nama. That is what Mama Nama means. Bhavataha Nama Kim. Bhavataha Nama Kim means what is your name, sir? When we are addressing a male person with respect, Bhavataha Nama Kim. Similarly, for females, it is Bhavatyaha Namakim. Bhavatyaha Namakim is what females, when we want to address them with respect, we say Bhavatyaha, Aap, or Shriman. That is when we go for Bhavataha Bhavatyaha. Bhavataha Namakim, Bhavatyaha Namakim. Again, this is something we'll come across as we go forward. We already discussed this. Rukshaha is Akaranta Pumlinga Vruksha Shabdaha. It is Akaranta. Similarly, Pustakam is Akaranta Napunsakalingam. It is that is where we see Pustakam, how it is ending. Then we have Bala. This is Akaranta Srilinga Bala Shabdaha. So this is a feminine gender. Similarly, we have Nadihi, Nadi. Ikaranta Srilinga Nadi Shabdaha. Ikaranta Srilinga Nadi Shabdaha. So here we have some words. Again, we have already seen these words as part of this homework. So we will try to address this quickly. So Premila Bhagini, can you please just point out what these words are? Are you available, Premila Bhagini?
Namaskar, Mahadaya.
Namaskar, Bhagini. So can you please point out each of these words with the gender and the ending of the word?
Okay. Akarantaga Pumlinga Shabdaha Balaka.
Samichinam. Agre?
Do you want me to go to vertically or horizontally?
Go through horizontally, Bhagini. Horizontally.
Okay. Chitram is
Chatram
is Napustakalinga.
Akaranta Napunsakalingam.
Droni is Ikarantaga Srilinga Shabdaha.
Samichinam. Agre?
Petika is Akaranta Srilinga Shabda.
Akaranta
Srilinga Shabda.
Samichinam.
Right? बालिका इस् अकारान्तः स्त्रीलिङ्गशब्दः
भगिनि वेन् वि आर् सेङ्ग् इट् इस् फार् द लोवर् lower alphabet. If you are saying for A, it will become Balika. If it is Balaka, it will become A. If it is Balika, it will become A.
Okay. So it is Srilinga Akaranta Srilinga Shabda.
Samichinam bhagini. Akaranta Srilinga Shabda.
Linga Shabda. Arakshakaha.
Bhagini, somebody is saying we'll also try to know the meaning of the words each time we are going through it. So balakah, balakah ityukte
boy.
Samichinam. Chhatram ityukte
umbrella.
Samichinam. Droni ityukte
droni means
bucket.
No. What?
Bucket, bucket.
Okay. Petika means petika.
Samichinam. Balika
means girl.
Samichinam. Agre bhagini.
Arakshakaha means policeman. Police?
Samichinam. Policeman. That is
akarantaha pumlinga shabdaha.
Samichinam. Samichinam.
Agre. Phalam means fruit. That is napunsakalinga.
అకారాంత నపుంసక లింగ
యువతి మీన్స్ ఉమెన్ ఆర్ లేడీ దట్ ఈస్ ఇకారాంత స్త్రీలింగ శబ్ద
సమీచీనం భగిని అగ్రే
పుస్తకం మీన్స్ బుక్ దట్ ఈస్ ఇకారాంత నపుంసక లింగ
సమీచీనం భగిని అగ్రే ఇకారాంత భగిని దిస్ వన్ ఇస్
ఇకారాంత నపుంసకలింగ
నో భగిని అకారాంత పుస్తకం అకారాంత చింతా మాస్తు
పుష్పం మీన్స్ ఫ్లవర్ దట్ ఈస్ అకారాంత నపుంసకలింగ
సమీచీనం అకారాంత నపుంసకలింగ
Asandha means it's a name of a gent or boy something that is
Asandha ityukte seat Asandha ityukte seat or a chair
okay it is sweet okay I thought it is his name that is akaranta punlinga shabda
samichinam agree
here ordered it is if it is sweet it can be a name also
not sweet bhagini seat s e a t or a chair asandah
okay got it yutakam yutakam
yutakam ityukte yutakam ityukte
yutakam means
shirt
shirt that is yutakam is akarantaka napunsaka linga
samichinam bhagini akaranta napunsaka lingam agre
sita se name and it is ikaranta sita akarantaka strilinga shabda
akaranta
आकारान्तः स्त्रीलिङ्गशब्दः
समीचीनं भगिनि अग्रे
दूरवाणी मीन्स् रेडियो
दूरवाणी इत्युक्ते
लैक् रेडियो लैक्
टेलिफोन् टेलिफोन्
टेलिफोन् ओके दूरवाणी टेलिफोन् दट् इस् इकारान्तः स्त्रीलिङ्गशब्दः
समीचीनम् अग्रे
mala means chain or garland
samichinam
that is akarantah strilinga shabdah akarantah strilinga shabdah
samichinam bhagini agre
stutah
स्यूतः
स्यूतः इट् इस् आकारान्तः पुंलिङ्गशब्दः स्यूतः मीन्स्
बेग्
बेग् ओके
समीचीनं भगिनि धन्यवादः सो विल् गो टु द नेक्स्ट् पर्सन् नो धन्यवादः प्रमीला भगिनि
थेङ्क् यू सर्
मन्या भगिनी आर् यु अवेलेबल्
महोदय आकारान्तः स्त्रीलिङ्गशब्द
भगिनि इट् इस् नलिनी
नलिनी सो अकारान्त
so when it is e would it be a or e when it is ending with e would it be a or would it be e
ikarantah
samiche number nalini is your name
name or nail you say
it's a noun
okay and then na okay purushah so अकारान्तः पुल्लिङ्गशब्दः पुरुषः इत्युक्ते मेन् ह्यूमन्
मेन् पुरुषः इत्युक्ते मेन् समीचीनं भगिनि अग्रे
कूपी ईकारान्तः शब्द स्त्रीलिङ्ग ऐ डोण्ट् इत्युक्ते ऐ डोण्ट् नो
बाटल् भगिनि इत्युक्ते बाटल्
बाटल् ओके next one is thalika so akarantah shabd strilinga thalika
plate thalika is a plate
plate okay vriddah akarantah shabd puminga vriddah is elderly man
samichinam agree
mahila so akarantah shabd strilinga mahila ityukte woman
samichinam agree
pushpam napunsakaling so would it be makarantah or still akarantah इत्युक्ते फ्लवर्
समीचीनम् अग्रे
मित्रम् अकारान्तः शब्दं नपुंसकलिङ्गम् इत्युक्ते फ्रेण्ड्
इत्युक्ते फ्रेण्ड् समीचीनम् अग्रे
वृद्धा आकारान्तशब्द स्त्रीलिङ्ग वृद्धा इत्युक्ते एल्डर्लि वुमेन्
समीचीनं भगिनि अग्रे
गृहम् आकारान्तः शब्दं नपुंसकलिङ्गम् इत्युक्ते ऐ डु नाट् नो
गृहम् इत्युक्ते हौस्
हौस् house graha okay and then vrikshah vrikshah akaranta pulinga shabdam vrikshah ityukte I don't remember
tree bhagini it is tree
tree thank you and then
agree
velani
Vellani.
Vellani. Ikaranta shabda strilingam. And ityukte the
rolling roller, pin. Dow roller yeah. or a dow roller.
Yeah.
Samichinam Bhagini. Dhanyavadam. Hope we got this. Now, we have asked questions, sir. And we have answered accordingly with respect to the object. Now, to be assertive and to know whether it is the right answer or not, we are going to we'll try to get introduced to another word. So we already know this, right? That saha cholaha or saha kaha. This is what we asked. What is it? Right? That is the way we ask the question. What is it? Saha kaha. What is it? So we got the answer saha cholaha. Right? That is what we got the question. So we were more assertive so far. Or we were very commanding in the way we were asking our questions. Now, we will try to answer the or ask the question with a kind of a 50% chance or kind of a doubt. That is what we are going to answer. And ask the question. I'm sorry, not the answer. We are going to ask the question with a doubt now. How are we going to ask such questions? Saha cholaha va means, is it really a blouse? That is what it means. Is it a blouse? Saha cholaha va? Va means question. Saha cholaha va means I am already answering it, but with a question. It is a blouse. Is it a blouse? Is the kind of question that we are asking now. Saha cholaha va? So the answer would be, aam. Saha cholaha. Aam means yes. Saha cholaha. Aam. Aam. That is how we say yes. Aam. Saha cholaha va? Aam. Saha cholaha. So now the next question is, saha makaraha va? Aam. Saha makaraha. Aam. Saha makaraha. Saha makarava makaraha va? What is makaraha? Makaraha ityukte crocodile, alligator. Saha makaraha va? Aam. Saha makaraha. So next, similarly, if you want to say no, then the word that comes for appending or prefixing it is basically na. So I'm asking the question here. Saha makaraha va? Na. Saha makaraha na. Saha vidyuddeepaha. So I'm saying it is not crocodile, it is a bulb. So how are we asking it? Saha makaraha va? Na. Saha makaraha na. Saha vidyuddeepaha. Saha vidyuddeepaha. That is how we are going to give the answer. No, it is not crocodile, it is a bulb. That is how we are going to answer this. Similarly, here we are asking, tat patram va? Na. Tat patram na. Tat laddukam. Tat patram na. Tat laddukam. So that is how we are going to answer this. Similarly, etat patram va? Aam. Etat patram. Aam. Etat patram. So now we will ask, we'll have Anita Bhagni to ask the question and then try to answer it. Anita Bhagni, can you please ask the question as well as answer the question?
Eshaha dat pawa na. Eshahan dat pa naha.
Danda deepaha. Danda deepaha means tube light. Danda deepaha.
Danda deepaha.
एषः करदीपः.
एषः करदीपः.
करदीपः. एषः दण्डदीपः वा न? एषः दण्डदीपः न. एषः करदीपः. हेण्ड् टार्च्. करदीपः. करम् इत्युक्ते हेण्ड्, दीपः लैट्. सो संथिङ्ग् दट् ऐ एम् होल्डिङ्ग् इट् इन् मै हेण्ड् इस् अ टार्च् लैट्. So, एषः दण्डदीपः वा? न. एषः दण्डदीपः न. दण्डदीपः. दण्ड मीन्स् समथिङ्ग् लैक् अ ट्यूब् आर् लैक् अ राड्. दट् इस् वाट् इस् दण्ड मीन्स् दीपः लैट्. सो ट्यूब् लैट्. इस् इट् अ ट्यूब् लैट्? नो. न. एषः दण्डदीपः न. एषः करदीपः. एषः करदीपः. दट् इस् वाट् वि आन्सर् इट्. सो नेक्स्ट् राघवन् महोदय. Raghavan Madhya, are you available?
नमस्कारः महोदय. एषा लेखनी वा? एषा लता वा? न. एषा लेखनी न. न. एषा लेखनी न. एषा बालिका.
समीचीनं महोदय. इस् इट् अ लैट्? इस् इट् अ पेन् आर् इस् इट् अ क्रीपर्? नो, दिस् इस् नाट् अ पेन् आर् अ क्रीपर्, इट् इस् अ गर्ल्. न, एषा लेखनी न, एषा बालिका. वाट् वास् द क्वश्चन्? एषा लेखनी वा? न, एषा लेखनी न, एषा बालिका. समीचीनं रघुवन् महोदय, समीचीनं, बहु समीचीनम्. अग्रे मुरुगन् महोदय. मुरुगन् महोदय.
यस् महोदय. यस् महोदय. तत् तत् फेनकं वा? आम्, तत् फेनकम्.
समीचीनं महोदय. फेनकम् इत्युक्ते
सोप्? सोप्.
बहु समीचीनं, बहु समीचीनं महोदय. तत् फेनकं वा? आम्, धन्यवादः महोदय, धन्यवादः. तत् फेनकं वा? आम्, तत् फेनकं. समीचीनम्. अग्रे सुचित्रा भगिनी.
यस्, तत् फेनकं वा? न, तत् फेनकं न, तत् पुस्तकम्.
समीचीनं भगिनी, बहु समीचीनं. तत् फेनकं वा? तत् न, तत् फेनकं न, तत् पुस्तकम्. पुस्तकम् इत्युक्ते
धन्यवादः.
बालसुब्रह्मण्यं महोदय अस्ति वा?
आम्. एषा बालिका वा? न, एषा बालिका न, एषा शर्करा.
समीचीनं महोदय. एषा शर्करा. शर्करा इत्युक्ते
शुगर्.
समीचीनं महोदय, बहु समीचीनं, धन्यवादः बालसुब्रह्मण्यं महोदय,
धन्यवादः.
अग्रे निष्ठा भगिनी. निष्ठा भगिनी, आर् यु अवैलेबल्?
एषः कृष्ण वा? न, एषः कृष्ण न, एषः रामः.
समीचीनं भगिनी. एषः कृष्णः वा? न, एषः कृष्णः न, एषः रामः. धन्यवादः निष्ठा भगिनी. अग्रे कुङ्कुं भगिनी.
सः वैद्यः वा? आम्, सः वैद्यः.
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 समीचीनं कुङ्कुं भगिनी, समीचीनं. सः वैद्यः वा? आम्, सः वैद्यः. वैद्यः इत्युक्ते
डाक्टर्.
समीचीनं, समीचीनं. वैद्यः इत्युक्ते डाक्टर्. अग्रे डाक्टर् तङ्गं भगिनी.
यस् सर्. एतत् व्यजनं वा?
व्यजनं, व्यञ्जनं, व्यजनं.
व्यजनं, व्यजनं वा? न, तत् व्यजनं न, तत् व्यजनं.
तत् व्यञ्जनं, तत् व्यञ्जनं न, तत् व्यजनम्.
ओके, सो वाट् इस्
व्यञ्जनं इत्युक्ते? व्यञ्जनं, व्यञ्जनानि. व्यञ्जनं कान्सोनेण्ट्, वर्ड्स् इन् द कान्सोनेण्ट्. व्यजनं, व्यञ्जनं, व्यञ्जनानि, कान्सोनेण्ट्.
ओके, वाट् इस् व्यञ्जनं? मत्लब् वाट् इस् व्यञ्जनं सर्?
क, ख, ग, ग, ञ, च, च, झ, झ, ञ, अवर् कान्सोनेण्ट्स् इन् संस्कृत लेटर्स्. व्यञ्जनं. समीचीनं भगिनी. व्यजनम् इत्युक्ते पेन्
महोदय. ओन् मोर् मीनिङ्ग् इस् देर् व्यजनं महोदय, इफ् यू डोण्ट् मैण्ड्.
गो अहेड् मुरुगन् महोदय, गो अहेड्.
ओन् मोर् नो, ओन् मोर् मीनिङ्ग् इस् देर् फार् व्यजनम्. ऐ केम् टु नो सम् वाट् सम् मील्स् लवर् காயரி கூட்டு அந்த மாதிரி விஜனம். அது
விஜனம், ரைட். சோ ஃபேன் இஸ் தேர், பாம் லீஃப் இஸ் ஆல்சோ, விஜனா இஸ் கால்ட் அஸ் பாம் லீஃப். you are referring to?
No, I was informed Vijayanam some things, food items, some curry cooked by the, sorry, I'm telling Tamil, some side dishes, some side dishes. That is also Vijayanam, I'm sorry, I got no idea, but I came to know, I was informed that I got, sorry.
Okay, is it in Sanskrit also it's called as Vijayanam for side dishes?
Okay. Sorry, Padita Maria. Sorry.
No, Maria. So, Vyanjanam, Vyanjanam is also like dry curry is also Vyanjanam. So, consonant is also, yes, so consonant.
Okay.
So,
different.
Yeah.
Okay, Maria. Understood. Dhanyavad.
Dhanyavad, Maria. So, Vyanjanam, there are two or three words, but we came across for Vyanjanam so far is with respect to our letters, Swaraha and Vyanjanam, Vyanjanani. So, Vyanjanani are consonants. Vyanjanam means consonant. So, what is the consonant? Chacha jajanya, chacha dadana, tata dadana, papa babhama. These are our consonant in Sanskrit language. That is what we are referring to as Vyanjanam. Or as Murugan Mahodaya pointed out, we have that also called as the curries, or the dry curries are also called as Vyajanam. So that is also Vyajanam, which indicates curries. So seasoning or a curry is also called as Vyajanam. Okay, okay Mahodaya, thank you for that. And next one, we have Indira Bhagini. Indira Bhagini.
Etat urukam va am etat urukam urukam
same urukam urukam ityukte
trousers
same chinam urukam ityukte trousers agre Ranjana Bhagini, are you available? Ranjana Bhagini,
yesha kattari va
yes. लेपनपट्टिका
समीचीनं भगिनि सो एषा कर्तरी वा न एषा कर्तरी न एषा लेपनपट्टिका लेपनपट्टिका इत्युक्ते सेलोटेप् अग्रे प्रियराम भगिनी
एषा त्रिचक्रिका वा न एषा त्रिचक्रिका न एषा द्विचक्रिका
समीचीनं भगिनी सो हियर वी आर सेइंग वी आर आस्किंग एषा त्रिचक्रिका त्री मीन्स ट्राई त्री व्हील्स वन Is it a three-wheeler one? No, it is not a three-wheeler one. Na, esha, trichakrika, na, esha, dvichakrika, two-wheeler. This is a two-wheeler, this is a bicycle. Dvichakrika, samichinam bhagini. Agre, Aishwarya bhagini? Okay, so sorry, wait, so this we have not covered. So let us first cover this and then we'll do this. Okay, asti nasti. So asti means present. Present is to say, is it available? That is what asti. Nasti means it is not present. It is not available here. That is what nasti. Asti va, nasti va. Are you available? Asti, asti va, nasti va. Are you not available? That is what asti and nasti means. Asti va, nasti va. Is it present? Is it not present? Asti and nasti. So here we have phalam asti, phalam asti, fruit is present. Phalam nasti, fruit is not present. Phalam asti, fruit is present. Phalam nasti, fruit is not present. So we have present and not present. Phalam asti, phalam nasti. Asti, nasti. So these are the two words that we come across. So we will quickly do this. We are already passed our time. We'll quickly do this slide and then we'll end it for today. So Aishwarya Bhagni, are you available? Aishwarya Bhagni, you are unmuted, but we are not able to hear your voice, Aishwarya Bhagni. Okay. No problem. Vandana Bhagini?
Yeah, sir. It is Bhagini. Shulika Asti.
Samichinam Bhagini. Agre?
Tamasa Asti.
Samichinam Bhagini. Agre?
Churika Asti. Churika. Churika Asti.
Churika Asti.
Sthalika. Sthalika Asti. Sir, I have one question. Sir, I have one question. I'm not very good with English, but in English, there are certain words are written in capital. So,
yes,
when if
yes.
you want to read in English, so why they are in capital?
Okay, Bhagini.
Some Sanskrit word.
Correct, but very good question, Bhagini. Nice way you have noticed. So, when we are writing with capital A, here we are referring to as Dheerga. So S-T-H means Tha, and I want to refer the Dheerga of Tha. So I write it as A. So what yes, Bhagini. So the editors that are there, whether it be PPT or document, they are understanding the Dheerga version as capital A.
Okay. No, but there are other words also comes like Asha. So E and A are coming capital.
Yes. So A, here we have E. If you write an E, it will become small e. If I write A, so I have to write it as capital E. And then Sh. Sh is again only for the Hraswa or the lower one. If I want to write the Dheerga one, I have to write it as A. So capital A for Asha.
Okay.
So if I write it in English and pronounce. Yes,
yeah.
If we write it in English and we are using capitals, most of the time it is for the higher ones or the Dheerga ones.
Okay. Dhanyavadam, sir.
Dhanyavada, Bhagini. So we will stop here, and also we have provided, okay, let me see if it is available. Let me go to this and see. Yeah. So as part of our Abhyasa Pustakam, right? We have done till this particular exercise, 1.2E. We have done this one till 1.2E. So for the homework, please practice 1.2A, 1.2E, and 1.2E. These are the things that you have to practice as part of this homework. So please try to practice till this part in Abhyasa Pustakam. Okay, this is what we are going to review in the next class. So please practice this. This will be our homework for the next for this week, and then we will review this in our next session. So this is the homework from Abhyasa Pustakam. Similarly, I will update the homework document. I will similarly update the homework document and post it via the email. That is what will be our homework for this week. So please try to review whatever we have done so far. We will be reviewing the homework in our next session. Till then, dhanyavadaha, namaskara, shubharatri, shubhadinam.
Dhanyavadaha.